राम गीता जी का पाठ 14वां अध्याय श्लोक 11 से 20 तक। राम
वसुदेव सुतं कंसजानुरमर्दनम् देवकी परमानन्दम् कृष्णं वन्दे जगद्गुरुम् सर्वद्वारेषु देहेषु प्रकाश उपजायते ज्ञानञ्जनादावेश्यादिवृद्धं सत्त्वमेच्युत लोभप्रवृत्तिरारम्भ जगस्येतानि जायन्ते विवृद्धे भरतर्षभ अप्रकाशो प्रवृत्तिस्तमादो मोह एव तमस्ये सत्ये प्रवृद्धे तु प्रलयं जाति देहे तदुत्तमविवाङ्गोपानमनां प्रतिपद्यते भजसि प्रलयं गत्वा कर्मसंसुजायते तथा बलिनस्तमसि मेधयो मेहुजायते कर्मणः सुकृतस्याहो सात्विकं निर्मलं फलम् रजसस्तु फलं सुख न ज्ञानं तमस फलम् सत्त्वात्सञ्जायते ज्ञानं रजसो लोभयते समादमोहो समसो भवतु गच्छन्ति सत्त्वमध्ये शान्तिराजसा गगन्यगुणविष्ठो गच्छन्ति तामसा नान्यं गुणेभ्य कर्तारम् दृष्टानुपश्यति गुणेभ्यश्च परं वेत्ति न भावं चोऽधिगच्छति गुणानेतानसीत्यपि देवी देहसमोद्भवान् जन्मृत्युदरातुमृतो मृतमाश्नुते सुनानेतानसीत्यपि देवी देहसमोद्भवान् जन्मृत्युदरातु समाश्नुते वसुदेव सुतं देवं कंसजानुरमर्दनम् देवकी परमानन्दम् कृष्णं वन्दे जगद्गुरुम् कृष्णं वन्दे जगद्गुरुम्
हरि शरणम् हरे शरणं हरे शरणं Hari Sharanam, 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 Hari Sharanam.